यो देवः सर्वभूतानाम् आत्मा ह्याराध्य एव च गुणातीतो गुणात्मा च समेनागः प्रसीदतु हृदयस्थोऽपि दूरस्थः मायावी सर्वदेहिनां योगिनां चित्तगम्यस्तु समेनागः प्रसीदतु सहस्रशीर्षः सर्वात्मा सर्वाधारः परः शिवः महाविशस्य जनकः समेनागः प्रसीदतु काद्रवेयो महासत्त्वः कालकूटमुखाम्बुजः सर्वाभीष्टप्रदो देवः समेनागः प्रसीदतु पाताळविलयो देवः पद्मनाभसुखप्रदः सर्वाभीष्टप्रदो यस्तु समेनागः प्रसीदतु नागनादीरतो दक्षो नारदादिसुपूजितः सर्वारिष्टहरो यस्तु समेनागः प्रसीदतु पृथा कुदेवः सर्वात्मा सर्वशास्त्रार्थपारगः प्रारब्धपापहन्ता च समेनागः प्रसीदतु लक्ष्मीपते सपर्यङ्क शम्भो सर्वाङ्गभूषणः यो देवः पुत्रदो नित्यम् समेनागः प्रसीदतु फणीशः परमोदारः शापपापनिवारकः सर्वपापहरो यस्तु समेनागः प्रसीदतु सर्वमङ्गलदो नित्यम् सुखदो भुजगेश्वरः यशः कीर्तिञ्च विपुलाम् श्रियमायुः प्रयच्छतु इति पुष्पाञ्जलिः मनोवाक्काय जनितं जन्म जन्मान्तरार्जितं यत् पापं नागदेवेश विलयं यातु सम्प्रति निरोगं देहपुष्टिं च सर्ववश्यं धनागमम् पशुधान्याभिवृद्धिं च यशो वृद्धिं च शाश्वतम् परवास्वं विनीं विद्यां वाग्वितं सूक्ष्मबुद्धिताम् पुत्रं वंशकरं श्रेष्ठं देहि मे भक्तवत्सल इति प्रार्थनम् सम्पूर्णम्।